स्वरसन्धिः इति विषयः. तस्मिन् च गतवर्गे वृद्धिसन्धिः यणुसन्धिः इत्यनयोः पाठः सञ्जातः आसीत्. तयोः किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरेम. तर्हि विद्या भगिनी, वृद्धिसन्धेः एकम् उदाहरणं ददाति वा?
तत्र योगः एव तत्रैव.
तत्र योगः एव तत्रैव. तत्र किं सञ्जातम्?
तत्र इति पदस्य अकारः अस्ति, एव इति पदस्य आदौ एकारः अस्ति. अकारः योगः एकारः पूर्वपरयोः स्थाने, द्वयोः स्थाने ऐकारः आदेशरूपेण आगच्छति.
हा, समीचीनं. तर्हि हा, सूत्रमपि उक्तवती भवती, वृद्धि
वृद्धिरेचि.
वृद्धिरेचि सूत्रस्य विषये किञ्चित् वदति वा?
हा, वृद्धिरेचि यदि
एकनिमिष. कुतश्चित् ध्वनिः आगच्छन् अस्ति, तर्हि कृपया म्यूट् कुर्वन्तु येन वदन्ति. अस्तु भगिनि वदतु.
अवर्णात् इत्युक्ते अकारः अथवा आकारः प्रथमम् अस्ति, अनन्तरं एच् एच् प्रत्याहारस्य कश्चन वर्णः इत्युक्ते ए ओ ऐ औ एते कश्चन वर्णः अनन्तरम् अस्ति चेत् द्वयोः स्थाने, पूर्वपरयोः स्थाने वृद्धिसंज्ञकः आदेशः भवति. वृद्धिसंज्ञकः इत्युक्ते आकारः, ऐकारः, औकारः एते वृद्धिसंज्ञकाः.
हा, बहु समीचीनम् अस्ति भगिनि. वृद्धिरेचि इति वृद्धिसन्धि विधायकसूत्रम् अस्ति. अस्तु, अवर्णात् एचि परे.
राजेन्द्र अस्मि, क्षम्यतां विलम्बः.
नमस्कारः महोदय. के के सन्ति? लक्ष्मी भगिनी, अनन्तरं
अभिनव.
अभिनव महोदय, अस्तु. अन्य कोऽपि अस्ति वा मध्ये ये आगतवन्तः? अस्तु, समीचीनं. तर्हि वृद्धिसन्धिविधायकसूत्रं वृद्धिरेचि इति, अपि च वृद्धिसंज्ञाविधायकसूत्रं किमस्ति भगिनि?
वृद्धिरादैच्.
वृद्धिरादैच् तत्र किञ्चित् वदति वा?
हा, वृद्धिरादैच् इति संज्ञासूत्रमस्ति. अत्र आकारः, ऐकारः, औकारः एते वृद्धिसंज्ञकाः इति एतत् सूत्रं वदति.
हा, तर्हि तस्मिन् सूत्रे आत् इति अस्ति. आत् इति यः तकारः अस्ति, सः तकारः कालस्य सूचकः, नाम मात्रायाः सूचकः. आत् इति दीर्घ अकारात् परतः तकारः अस्ति चेत् दीर्घ अकारस्य नाम आ इत्यस्यैव वृद्धिसंज्ञा इति अवगन्तुं शक्नुमः. अपि च एच् इति प्रत्याहारः. तर्हि एते त्रयः वर्णाः, दीर्घ अकारः, एकारः, ओकारः, एतेषां वृद्धिसंज्ञा. तर्हि यत्र कुत्रापि वृद्धिसन्धिः भवति तत्र तत्र एतेषु अन्यतमः आदेशरूपेण आगच्छति. अस्तु, तर्हि भगिन्या अधुना तत्र योगः एकः, तत्रैकः इति उक्तम् इति एकविधवृद्धिसन्धिः. बालसुब्रह्मण्यमहोदय, एकम् उदाहरणं ददाति वा यत्र ओकारः अस्ति? बालसुब्रह्मण्यमहोदय प्रायः म्यूट् मध्ये अस्ति इति भाति.
जिह्वा ओष्ठम्.
हा,
आकारान्त प्रथमभागः, तदनन्तरं ओकारादि द्वितीयभागः, पूर्वपरयोः स्थाने औकारः आयाति. जिह्वौष्ठम् इति नूतनपदम्.
बहु समीचीनं, जिह्वौष्टम् इति अस्ति. तर्हि वृद्धिसन्धि कुत्र भवति इत्युक्ते अवर्णात् एचि परे इति उक्तं. तर्हि एच् इति प्रत्याहारे ए ओ ऐ औ इति एते वर्णाः. अस्तु, तर्हि यत् यत्किमपि भवतु, आदेशरूपेण तु आकारः ऐकारः औकारः महोदय हा तर्हि भवतः उदाहरणे आदेशः कः आसीत्
आदेशः औकारः
हा आदेशरूपेण
आदेशरूपेण औकारः
हा आदेशरूपेण औकारः आसीत् इति वृद्धिसन्धिविषयः अस्तु महोदय तर्हि यण् सन्धेः एकम् उदाहरणं ददाति वा
अति उत्तमम् अत्युत्तमम् अति उत्तमम् अत्युत्तमम्
तत्र किं सञ्जातं महोदय
पूर्वभागे इकार इकारान्तपदः अति इ अत् इ तदनन्तरम् उत्तमम् इति अचादि पदः उत्तमम् उकारः अचस्वरः तस्मात् इकार पूर्वादि इकारस्थाने यण् यकारः आयाति तस्मात् अत्युत्तमम् इति नूतनमर्थः भवति
बहु समीचीनम् अस्ति अत्युत्तमम् इति यण् सन्धेः उदाहरणमस्ति तत्र सूत्रं किञ्चित् विवृणोति वा महोदय
इको यणिति इति सूत्रम् इकस्थाने इक् इति इ उ ऋल् इक् स्थाने यण् आदेशः यवरल इति वर्णानि स्यात् अचि परे परे अचि अच्छ स्वरः आयाति चेत् इक् स्थाने यण् आदेशः भवति
हा इक् स्थाने यण् आदेशः भवति कदा
अचि परे
संहितायाः विषये अस्तु तर्हि इक् स्थाने यण् इति जानीमः सूत्रं दृष्ट्वा इको यणचि इति सूत्रं दृष्ट्वा अचि परे इक् स्थाने यण् आदेशः इक् प्रत्याहारे तु इ उ ऋल् इति एते वर्णाः अपि च यण् प्रत्याहारे यवरल इति एते वर्णाः तर्हि कस्य स्थाने कः वर्णः इति महोदय कथं निर्णेतुं शक्यते
ईकारस्थाने यकारः ऊकारस्थाने वकारः ऋ तस्मात् उरण्ड्रपरकः इत्यादि
हा अत्र उरण्ड्रपरः कार्यं न करोति नाम अत्र ऋकारस्य स्थाने रेपः रेपः साक्षात् आगच्छति खलु
तस्मात् इल् स्थाने अल्
हा लुकारस्य आदेशः भवति सत्यं समीचीनं तर्हि स्थान उच्चारणस्थानस्य आधारेण उच्चारणसाम्यम् इत्यस्य आधारेण तत्र एकं सूत्रमपि उक्तं महोदयेन स्थानेतरतमः इति तद्
प्रयत्नं सर्वान्
तत्र सवर्णम् इत्युक्ते किम् इत्यस्य संज्ञा ददाति तुल्यास्य प्रयत्नं सवर्णम् इति सत्यं तत्तु संज्ञासूत्रं किन्तु एतत् सूत्रं परिभाषासूत्रम् अस्ति अस्तु यत्र कः वर्णः कस्य स्थाने इति न उक्तं तत्र स्थानेन्तरतमः आगत्य वदति उच्चारणसाम्यं यत्र अस्ति तर्हि तयोः एव तौल्यं तर्हि आदेशरूपेण स एव आगच्छति इकारस्य स्थाने यकारः इकारः तालव्यवर्णः खलु यकारः अपि तथा तद्वद् हा उकारस्य स्थाने वकारः उकारः कः वर्णः ओष्ठवर्णः वकारः दन्तोष्टम् इति दन्तौष्ट्यः तर्हि वकारः आगच्छति तद्वत् ऋकारः मूर्धन्यवर्णः तस्य स्थाने रेपः अपि तथा एव अस्ति तर्हि रेपः आगच्छति ऋ इति दन्त्यवर्णः तस्य स्थाने लकारः दन्त्यः इति इकोयणचि इति यण् सन्धिविधायकसूत्रम् आसीत् अस्तु, तर्हि अधुना वयं कस्मिन् पुटे स्मः? विंशतितमपुटे खलु? हा, विंशति इति पुटसङ्ख्या. तत्र अजयमहोदय पश्यति वा?
आं भगिनि.
अभ्यासः इति अस्ति, किञ्चित् कारयतु प्रथमाभ्यासम्.
स्थूलाक्षरेषु पदेषु सन्धिच्छेदं कुरुत. परामत्मा इत्युदाहृतः.
वस्तुतः दोषः स्यात् तत्र, परमात्मा भवेत्. वस्तु तत्रापि सन्धिः अस्ति. कीदृशसन्धिः महोदय? न, परमात्मापदे कीदृशसन्धिः?
परमात्मापदे सवर्णदीर्घसन्धिः.
बहु समीचीनम्, अस्तु, अग्रे.
इत्युदाहृतः इति योगः उदाहृतः, इत्युदाहृतः यण्सन्धिः आसीत्.
हा, अत्र सर्वे सर्वाणि उदाहरणानि यण्सन्धेः एव, यण्सन्धेः अभ्यासः. किन्तु कस्य स्थाने कः वर्णः आदेशः भवति इति वक्तव्यम्?
इकारस्थाने यकारः आदेशः.
अस्तु, अग्रे.
सम्भवाम्यात्
मन्दं मन्दं पठतु.
सम्भवाम्यात्मायया सम्भवाम्यात्ममायया.
अस्तु, पदच्छेदं कृत्वा.
सम्भवामि आत्ममायया. इकारस्थाने यकारः आदेशः.
हा, बहु समीचीनम्, अग्रे.
यजन्त्य विधिपूर्वकम्, यजन्त्य विधिपूर्वकम्, यजन्ति विधिपूर्वकम्. इकारस्थाने यकारः आदेशः यः.
अस्तु, किन्तु चिन्तयतु, यजन्ति योगः विधिपूर्वकम् इति भवति चेत् कस्मात् परः कः वर्णः इति भवति स्थितिः? भवता उक्तं यजन्ति योगः विधिपूर्वकम् इति खलु? हा, यण्सन्धिः कदा सम्भवति? सूत्रं किमस्ति यण्सन्धेः?
इको यणचि, अचि परे.
हा, अचि परे. तर्हि
यजन्ति
पूर्वस्मिन् पुटे पश्यतु महोदय. पूर्वस्मिन् पुटे प्रथम उदाहरणमस्ति खलु, शक्नोमि अवस्थातुम् इति खलु? तत्र इकारस्य स्थाने यकारः आगतः इति सत्यं, किन्तु यकारे अकारः अस्ति खलु? हा, यकारे अग्रिमः अच्वर्णः यः अस्ति तस्य मात्रा भवति. शक्नोमि इत्यस्य इकारस्य य इति आगतं, व्यञ्जनं, स्वररहितं व्यञ्जनम् आगतं, किन्तु स्वरस्य उच्चारणार्थम् अग्रिम अचः साहाय्यं स्वीक्रियते अत्र खलु, तदर्थमेव शक्नोम्यवस्थातुम् इति अभवत्. अत्रापि तथैव, तत्र किम् अस्ति इति द्रष्टुं शक्नोति, यकारे कस्य मात्रा अस्ति इति. यकारे कः स्वरः अस्ति?
अकारः.
हा, अकारः अस्ति खलु, तर्हि सः अकारः कुतः आगतः? अचीपरे खलु, तस्मात्. इदानीं पदच्छेदं कथं भवति इति चिन्तयतु. यजन्ति अविधिपूर्वकम्.
अविधि सम्यक्.
यजन्ति
अविधिपूर्वकम्.
यजन्त्यविधिपूर्वकम्. अस्तु, समीचीनम्. अग्रे
दुःखेष्वनु द्विग्नामनः दुःखेष्वनु विघ्नमनाः दुःखेषु दुःखेषु अनुद्विग्नमनाः. उकारस्थाने वकारः आदेशः.
हा हा, समीचीनम्. उकारस्य वकारः इत्यस्य उदाहरणम् अस्ति अत्र. अपि च वकारे कः स्वरः अस्ति?
वकारे अकारः.
हा हा, तं स्वरं दृष्ट्वा ऊहां कर्तुं शक्नुमः खलु. दुःखेषु योगः. अस्तु, परतः अकारः अस्ति. अनुद्विग्नमनाः.
अनुद्विग्नमनः.
समीचीनम्. अग्रे
अस्विष्ट काम कामधुक् अस्विष्ट काम कामधुक्
वकारः वकारः हा एकनिमिषः वकारः आगच्छति चेत् कस्य स्थाने आगच्छति वकारः?
उकारस्थाने.
तर्हि प्रथमपदं किं स्यात्? प्रथमपदम् उकारान्तपदं स्यात् खलु?
उकारम् उकारान्तपदं, परन्तु अस्ति
अस्तु इति स्यात् प्रथम. तद् निर्णीतं चेत् अग्रे चिन्तयतु.
अस्तु इष्टकाम कामधुक्.
हा, समीचीनम्. अस्तु योगः इष्टकामधुक् इति अस्ति. तर्हि आहत्य
अस्त्विष्ट कामधुक् उकारस्थाने वकारः आदेशः.
हा, बहु सम्यक् अस्ति. अस्तु, तर्हि इतः अग्रे सरेम. सुमित्रा भगिनी, अग्रे.
आं भगिनि, सन्धिं भवति योगः अल्पमेधसाम् इकारस्य स्थाने यकारः आदेशः भवत्यल्पमेधसाम् इति. अग्रे पठामि वा?
अग्रे अपि भवति योगः अल्पमेधसा. हा, इकारस्य स्थाने यकारः भवत्यल्पमेधसम्. अस्तु, अग्रे
इन्द्रियाणि योगः आदौ इकारः स्वरः परे अस्ति अतः इकारस्य स्थाने यकारः. इन्द्रियाण्यादौ इति.
हा,
इति योगः उपधारय इकारस्य स्थाने यकारः आदेशः. इत्युपधारय.
बहु समीचीनम्. अग्रे
मोहयति योगः एषः इकारस्य स्थाने यकारः आदेशः स्वरः परः अस्ति इति कारणात् मोहयति एषः मोहयत्येषः.
मोहयत्येषः.
अनन्तरं कर्मसु योगः अनुषज्जन् अनुषज्जते उकारस्य स्थाने बकारः आदेशः. कर्मस्वनुषज्जते. धातृयोगः ओजः ऋकारः अतः रेपः आदेशः दात्रोजः इति
दात्रोज् धात्रोजः इति भवति ऋकारस्य रेपः खलु तुल्यतमवर्णः उच्चारण तर्हि रेपः आगच्छति अग्रिमस्वरः ओकारः यः अस्ति सः रेफे उज्यते इति युज्यते इति कृत्वा धात्रोजः अस्तु हा एवं करोतु भगिनि तत्र पूर्वस्मिन् पुटे यत्र ऋकारात् परतः अचुवर्णः इति उदाहरणानि सन्ति तद् परिशीलयतु यतोहि
ऐश्वर्यं ऋकारस्य स्थाने रेपः मात्रैश्वर्यम् इति अस्तु भगिनि अवगच्छति
अग्रे अपि पठतु विरलाः एव भवन्ति उदाहरणानि ऋकारस्य अस्तु अग्रे अपि पठतु
पितृयोगः ओजः ऋकारस्य स्थाने रेपः आदेशः रेपः योगः औ पित्रोजः इति अनन्तरं दातृयोगः औदार्यं दात्रौदार्यम्
इति हा समीचीनम् अस्तु इति एव अस्ति अग्रे उदाहरणानि समापयतु अग्रिमे पुटे
क्षिपामि योगः अजश्रम् इकारः क्षिपाम्यजश्रम्
इकारस्य यकारः अस्तु अग्रे
सरस्वती योगः ऐश्वर्यम् ईकारः योगः अकारः यकारः भवति सरस्वत्यैश्वर्यं वक्तृयोगः औदासीन्यं ऋकारः अस्ति अतः रेपः आदेशः वक्त्रौदासीन्यम्
हा समीचीनम् अस्ति तर्हि यण् सन्धिः इति विषयः समाप्तः एते अभ्यासप्रश्नाः अपि च उदाहरणानि आसन् अस्तु अधुना नूतनसन्धिः अस्ति यान्तवान्तादेशसन्धिः इति सुब्रह्मण्यमहोदय पठति वा
आं भगिनि यान्तवान्तादेशसन्धिः अयादिसन्धिः एतानि उदाहरणानि परिशीलयत हरे योगः ए अत्र हरे इत्यस्मिन् पदे पदान्ते यः एकारः अस्ति अत्र एकारः ऐ भवति अतः हरये इति रूपं निष्पन्नं भवति विष्णो योगः ए अत्र विष्णो इत्यस्मिन् पदे पदान्ते ओकारः अस्ति ओकारः औ भवति अतः विष्णवे इति रूपं निष्पन्नं भवति अनन्तरं नै योगः अकः नै योगः अकः अत्र ऐ स्थाने आय् आदेशः अतः नायकः पूजार्हौ योगः अरिसूदन अत्र औकारस्य स्थाने आव् आदेशः पूजार्हारिसूदन पूजार्हावरिसूदन द्वौ योगः इमौ अत्र औकारः औकारस्य स्थाने आव् द्वौ विमौ इति रूपं निष्पन्नं भवति अत्र एकारस्य स्थाने ऐ ओकारस्य स्थाने औ ऐकारस्य स्थाने आय् औकारस्य स्थाने आव् आदेशः भवति परतः अत्र स्वराः सन्ति इति अत्र सूक्ष्मरूपेण अग्रे अपि पठामि वा भगिनि
हा 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 वस्तुतः भवता सर्वं प्रतिपादितं समीचीनमेव अस्तु अग्रे अपि
एतेषु उदाहरणेषु ए ओ ऐ औ वर्णेभ्यः परतः स्वराः सन्ति यथा वयम् इदानीं दृष्टवन्तः पूर्वम् ए ओ ऐ औ अनन्तरमत्र स्वराः तत्र ए वर्णस्य स्थाने ऐ ओ वर्णस्य स्थाने औ ऐ वर्णस्य स्थाने आय् औ वर्णस्य स्थाने आव् आदेशाः सम्पन्नाः ए ऐ ओ औ इत्येतेभ्यो वर्णेभ्यः स्वरे परे एकारस्य स्थाने ऐ ऐकारस्य स्थाने आय् ओकारस्य स्थाने औ औकारस्य स्थाने आव् इति आदेशाः भवन्ति वयं दृष्टवन्तः अत्र ए ओ ऐ औ पूर्वं परतः स्वराः क्रमशः अत्र एकारस्य स्थाने ऐ, ओकारस्य स्थाने औ, ऐकारस्य स्थाने ऐ, औकारस्य स्थाने औ आदेशाः भवन्ति. तदेव अत्र कोष्टके अपि दत्तमस्ति. अत्र ऐ आय् इत्येतौ यान्तौ अन्ते यकारः अस्ति इति अर्थः. अव् आव् इत्येतौ वान्तौ अस्मिन् सन्धौ यान्तवान्ताः पूर्ववर्णस्य स्थाने आदेशाः भवन्ति. अतः यान्तवान्तादेशसन्धिः इति एतस्य नाम. अत्र आदेशः आदेशाः ऐ आय् अव् आव् एते भवन्ति. अतः ऐ आय् इत्येतौ यान्तौ इति वदामः. इत्युक्ते अत्र यकारः अन्ते अस्ति इति तस्य अर्थः. तथा एव औ आव् वदामः वान्तौ, अत्र वकारः अन्ते अस्ति इति अर्थः. अत्र आदेशाः यान्तः वान्तः, यान्तौ वान्तौ, अतः सन्धेः नाम यान्तवान्तादेशसन्धिः.
हा, समीचीनमस्ति. अपरनाम अपि अस्ति अस्य सन्धेः, तत्र
अयादिसन्धिः इति अपि अस्ति. किमर्थं चेत् अत्र ऐ औ आय् आव् एते आदेशाः भवन्ति. अतः अयादिसन्धिः इति अपि तस्य नाम.
हा, समीचीनम्. ऐ आदिरेषाम् अयादिः इति आगच्छति. तर्हि ऐ आदिः इत्युक्ते तस्मिन् समूहे ऐ आय् अव् आव् इत्येते आदेशाः भवन्ति इति. अस्तु, सम्यक् अस्ति. अधुना उदाहरणस्य माध्यमेन यान्तवान्तादेशसन्धेः परिचयः जातः. सूत्रं किं वदति इति अग्रे पश्येम. करपत्रं पश्यन्तु सर्वे कृपया. तत्र सरला भगिनी करपत्रात् पठति वा?
अस्तु भगिनि. एचोयवायाव एषः ए औ ए औ इत्येषां स्थाने क्रमेण अय अव आय आव इत्येतेषाः भवन्ति अचिपरे. क्रमेण इत्युक्तं यथा संख्यामनुदेशसमानम् इति परिभाषासूत्रस्य सहायेन अय च अव च आय च आव च तेषाम् इतरेतरद्वन्द्वः अयवायावः. एषः षष्ठन्तम्, अयवायावः प्रथमान्तं, द्विपदं सूत्रम् इको यनचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिसहितायाम् इत्यस्य अधिकार अनुवृत्तिसहितसूत्रम् एषः अयवायावः अचि सहितायाम् एचोयवायाव सूत्रं यान्तवान्तदेशसन्धि प्रति अस्ति. एचः अस्ति षष्ट्यान्तं पद प्रत्याहार, तस्मिन् अस्ति ए औ ए औ एते वर्णाः. क्रमेण अय अव आय आव आदेशा भवन्ति. अय आय अयवायावः प्रथमान्तं पदमस्ति. तस्य परे अचि.
समीचीनं समीचीनं भगिनि. तर्हि अयवायावः प्रथमान्तं किमर्थम्?
बहुवचने प्रथमान्तम् अस्ति अय अव तस्य
वस्तुतः. हा, बहुवचने प्रथमान्तम् इति सत्यं, किन्तु मम प्रश्नः अस्ति प्रथमान्तं किमर्थम् अस्ति अस्मिन् सूत्रे?
आदेशः अस्ति.
हा, समीचीनम्. आदेशः, आगमः, नामकरणम् इत्येषां प्रथमाविभक्ति
प्रथमाविभक्ति भवति.
समीचीनम्.
अचि तस्य परे अस्ति. इको यनचि तस्याम् अनुवृत्तिः अस्ति अचि. तस्य परे यदि अचि अस्ति कार्यं तस्य पूर्वं भवति, स्वरस्य पूर्वं. सहितायाम् इति सन्धिविषये अस्ति अनुवृत्तिसहितसूत्रम्.
इतोपि एकः विषयः अस्ति अत्र.
ए तस्य स्थाने अय आगच्छति क्रमेण यथा संख्यामनुदेशसमानं सूत्रेण. ए तस्य स्थानाभ्यन्तरम् अस्ति तालु कण्ठ तस्य अय अपि तस्य
एकनिमिष 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 पूर्वस्मिन् सूत्रे इको यणचि इत्यस्मिन् सूत्रे अस्तु तत्र आदेशाः न उक्ताः अत्र तु अस्मिन् सूत्रे एव एचः स्थाने अयव् आय् आव् इति आदेशाः उक्ताः सन्ति स्पष्टतया तर्हि अत्र चिन्तनीयम् अस्ति एच् इति अस्ति तस्य स्थाने एतेषु आदेशेषु कः आगच्छति इति
क्रमेण अय अस्ति प्रथमम् एच् एच् प्रत्याहारे ए प्रथमं वर्णः अस्ति औ तस्य अनन्तरम् ऐ तृतीय औ चतुर्थवर्णस्ति
हा इति यथा साङ्ख्यम् अनुदेशः समानम् इति परिभाषासूत्रं तदेव वदति क्रमेण आगच्छतु आदेशाः खलु अस्तु हा इति तद्वदति किन्तु हा प्रायः उच्चारणसाम्यम् इति अपि एकः विषयः इति चिन्तयामि परन्तु अत्र तु क्रमस्य प्राधान्यम् इति कृत्वा इदं सूत्रं कार्यं करोति यथा साङ्ख्यम् अनुदेशसमानम् इति सूत्रेण पूर्वस्मिन् सूत्रे इको यणचि इत्यत्र अस्माभिः ऊहा करणीया आसीत् कस्य इक् वर्णस्य स्थाने यण् तत्र उच्चारणसाम्यं दृश्यते तद् तत्र कार्यं करोति अत्र
यथासङ्ख्यामनुसमानं क्रमेण आदेशः भवति
अस्तु अस्तु समीचीनं भगिनि अस्तु तर्हि षष्ट्यन्तं षष्टिविभक्तिः कस्य पदस्य
एचः शब्दस्य षष्टिविभक्तिः अस्ति तस्मिन् ए औ ए औ वर्णाः सन्ति
षष्टिविभक्ति इत्युक्ते किं सूत्रेषु
पूर्वं पूर्वपदं अन्ते षष्टिविभक्ति अस्ति अत्र यथा हरे योग ए पूर्वपदस्य अन्ते एकार आगच्छति तस्य षष्टिविभ एच् वर्णे अस्ति तस्य स्थाने आदेश अय आगच्छति हर ए भवति अय आदेश
एकनिमिष न षष्टिविभक्तिविषये यदा वदामः तत्र पूर्वं वा परं वा इत्यस्य प्राधान्यं नास्ति षष्टि किं सूचयति
षष्टिस्थानं सूचयति
हा अस्मिन् सूत्रे आदेशाः उक्ताः ऐ औ आय् आव् इति आदेशाः उक्ताः ते आदेशाः कस्य स्थाने भवति इति जिज्ञासायां सत्यं तत्र एचः स्थाने इति आगच्छति अस्तु तद्वदेव पूर्वस्मिन् सूत्रे अपि खलु
इकः षष्टिविभक्ति इति यण आदेशः अस्ति यदि अचि परे
हा सत्यं यत्र कुत्रापि षष्टि सूचितमस्ति तत्र तस्य स्थाने भवति इति परन्तु अन्यानि सूत्राणि पश्यतु किञ्चित् तत्र वृद्धिरेचि अस्तु आद्गुणः इत्यत्र षष्टिः कुतः आगच्छति कस्य स्थाने इति कथं जानीमः
तत्र पूर्वपरयोः आद्गुणः अपि पूर्वपरयोः प्रथम षष्टि तत्र पूर्वपदस्य अन्तिम वर्ण
परपदस्य अनयोः स्थाने इति सूचयितुम् एकः पूर्वपरयोः इत्यस्य अनुवृत्तिः अस्ति सर्वे पश्यन्तु तत्र वृद्धिसन्धिविधायकसूत्रे अपि अनुवृत्तिसहितसूत्रमस्ति आत् एचि पूर्वपरयोः एकः वृद्धिः संहितायां नाम पूर्वपरयोः स्थाने इति षष्टिविभक्ति तयोः स्थाने एकः आदेशः तद्वत् गुणसन्धिविधायकसूत्रे अपि आतचि पूर्वपरयोः एकः गुणः संहितायाम् अनुवृत्तिसहितसूत्रं पुनः सवर्णदीर्घसन्धिविधायकसूत्रमपि तथा अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् इति तर्हि एतेषु सूत्रेषु पूर्वपरयोः इत्यस्य अनुवृत्तिः अस्ति वस्तुतः अधिकारः अधिकारः इति उच्यते, यतोहि पूर्वपरयोः सम्पूर्णतया आगत्य एषु सूत्रेषु अनुवृत्तिरूपेण उपविशति इति. परन्तु यण् सन्धिः यान्तवान्तादेशसन्धिः तत्र नास्ति अधिकारः पूर्वपरयोः इत्यस्य. तत्र सूत्रे एव स्थानि उल्लिखितम् अस्ति इत्यस्मात् कारणात् इकः स्थाने एचः स्थाने इति सूत्रे एव षष्ट्यन्तपदम् अस्ति, यः कस्य स्थाने कः आदेशः भवतु इत्यस्य सूचनार्थम्. अस्तु
अस्तु.
कोऽपि प्रश्नः वा अत्र? अस्तु, हा हा, समीचीनमस्ति. तर्हि यण् सन्धिः अपि च यान्तवान्त आदेशसन्धिः अनया दृष्ट्या भिन्नौ सन्धिस्तः, यतोहि तत्र स्थानी उक्तं, सूत्रे एव स्थानी उक्तम् इत्यनेन तत्र किञ्चित् भिन्नः अस्ति सन्धिः.
समानः अस्ति पूर्वपदस्य स्थानी अस्ति.
किं भगिनि?
पूर्वपदं स्थानी अस्ति तत्र, स्थानी पूर्वपदे अस्ति.
हा हा, पूर्वपदं सत्यं, पूर्वपदं स्थानी इति सत्यं. तर्हि पूर्वस्यैव एकस्य वर्णस्य स्थाने आदेशः भवति, किन्तु गुणसन्धिः वृद्धसन्धिः सवर्णदीर्घसन्धिः तथा नास्ति. खलु पूर्वरूपसन्धिः पररूपसन्धिः अपि तथा नास्ति. तत्र कीदृशी स्थितिः भवति इति अग्रे पश्येम. अस्तु तर्हि हा अग्रे पुस्तकात् सरला भगिनी, प्रायः त्रीणि एव उदाहरणानि सन्ति, तत्र समापयतु.
अभ्यास रिक्तस्थाने पूरयत. भूमावस्पत्नं भूमौ अवस्पत्नं प्रथमं, द्वितीय नै योग अक नायक ऐ तस्य स्थाने आय् आगच्छति, आय् अक नायक भवति. प्रथम ते भूमौ औ स्थाने आव् आगच्छति, अतः भूमौ वस् बलं भवति. तृतीय अस्ति पौ योग अक्त औ स्थाने आव् आगच्छति, पावक भवति.
हा पावकः इति भवति. अस्तु समीचीनम्. इति यान्तवान्तादेशसन्धिः आसीत्. अग्रिमसन्धिः अस्ति पूर्वरूपसन्धिः इति. अग्रे रामप्रिया भगिनी पठति वा?
आं भगिनि. पूर्वरूपसन्धिः एते उदाहरणे परिशीलयत. मे योगः अच्युत, तत्र मकारः योगः अकारः, तत्र अवग्रहम् इत्येव उच्यते किल. आकारस्य स्थाने आगच्छति योगः च्युत, मे च्युत. अकारस्य स्थाने अवग्रहादेशः.
अत्र कस्य स्थाने कः आदेशः इति अग्रे पश्येम. अस्तु, अधुना भवत्या यदुक्तं तत् सत्यम्. अकारः गतः अवग्रहचिह्नः, नाम अकारः न उच्चार्यते. उच्चारणं करोतु भगिनि सर्वेषां कृते एकवारं.
मेच्युत
मेच्युत इति भवति. अस्तु अग्रे.
तुमुलो योगः अभवत्, तत्र तुमुल् योगः ओकारः अवग्रहः योगः अभवत्, तुमुलो अभवत्. एतयोः उदाहरणयोः ए ओ इति वर्णाभ्यां परतः अकारः अस्ति, तत्र ए वा ओ योगः आ इति वर्णयोः स्थाने ए ओ इत्यादेशः सम्पन्नः अस्ति. अवग्रहः इदं चिह्नं स्पष्टप्रतिपत्तये लिख्यते, पाणिनिना तु न विहितम्. पदान्तात् एकारात् अकारे परे एकारः, पदान्तात् ओकारात् अकारे परे ओकारः इति पूर्वपरयोः स्थाने एकादेशो भवति. पूर्ववर्णः ए वा ओ आदेशः भवति, अतः पूर्वरूपसन्धिः इति अस्य नाम. एकारात् अकारे परे एकारः आगच्छति, आदेशः भवति. ओकारात् अकारे परे ओकारः आदेशः भवति. अवग्रहम् इति चिह्नमेव अस्ति अत्र स्पष्टीकरणार्थं.
हा अस्तु, अधुना प्रश्नः उदेति. भवती आरम्भे किं चिन्तितवती? अकारस्य स्थाने अवग्रहः इति खलु. किन्तु अत्र किं दृश्यते, कस्य स्थाने भवति?
एकारस्य वा ओकारस्य स्थाने पूर्वरूप आदेशः भवति.
द्वितीयवाक्यं पठतु. तत्र
कुत्र? तत्र ए ओ योगः अ इति वर्णयोः स्थाने, वर्णयोः स्थाने एव आगच्छति.
उभयोः वर्णयोः स्थाने आगच्छति. कस्य स्थाने इति प्रश्नः भवति चेत् अस्माभिः किं चिन्तनीयम्? अस्तु, अस्मिन् सूत्रे सूत्रं पश्यामः. सूत्रे स्थानी न उक्तं, तर्हि कुतश्चित् अधिकारः अनुवृत्तिः अस्ति वा इति द्रष्टव्यमस्ति. अस्मिन् अपि एकः पूर्वपरयोः इत्यस्य अधिकारः अस्तिरेव. अतः पूर्ववर्णः कः? मे योगः अच्युत इत्यस्मिन्
पूर्ववर्णः एकारः.
हा, परवर्णः
अकारः.
हा, तयोः स्थाने कः आदेशः भवति?
एकारः.
हा, इति एव पूर्वरूपसन्धिः. तथा किमर्थम् उच्यते भगिनि पूर्वरूपम् इति?
पूर्वरूपम् इत्युक्ते एकारः एव पूर्ववर्णः अस्ति, तद् आगच्छति आदेशरूपेण, अतः पूर्वरूपसन्धिः.
आदेशरूपेण पूर्ववर्णः आगच्छति. कस्यां दशायाम्?
अचि परे, अकारः परे अस्ति चेत्. अकारः एव, न अचि नास्ति, अकारः एव.
अकारः परे अस्ति चेत्, एकारात् अथवा ओकारात् परतः अकारः अस्ति चेत् तदा पूर्ववर्णः, उभयोः स्थाने पूर्ववर्णः आगच्छति आदेशरूपेण इति कृत्वा पूर्वरूपसन्धि. अस्तु, अत्र परिशीलयतु. मे योगः अच्युत इत्यस्यां स्थित्याम् अन्यः कोऽपि सन्धिः सम्भवति वा?
यान्तावान्तदेशसन्धिः भवेत्, तद् तस्य प्रसक्तिः अस्ति अत्र. यान्तावान्तदेश एकारस्य स्थाने ऐ भवितुम् अर्हति, परन्तु न भवति.
हा, तस्य कारणं किम्?
यान्तावान्तदेशसन्धेः यदा हरे योगः ए इति अस्ति, तत्तु पदम् अस्ति हरे इति. क्षम्यतां, तत्तु अपदम् अस्ति. मे योगः अच्युत इति अस्ति, तत्र मे इति पदम् अस्ति. तुमुलो अभवत्, तुमुलो अपि पदम् अस्ति.
हा हा, इति प्रमुखविषयः अस्ति. नो चेत् उभयत्र यान्तवान्तसन्धिः सम्भवति एव खलु. मे योगः अच्युत, तत्रापि अयादेशः. तुमुलो योगः अभवत्, तत्र किं भवितुम् अर्हति?
तुमुलो अभवत् ओकारस्य स्थाने औ.
हा, औ भवितुम् अर्हति, किन्तु न सम्भवति. कारणमस्ति किम्?
एतत् पूर्वरूपसन्धेः पदान्ते एकारः वा ओकारः अस्ति.
हा हा, इति प्रमुखविषयः अस्ति. अस्तु, तदर्थं यान्तवान्तादेशसन्धिं प्रबाद्य अयं सन्धिः कार्यं करोति. पूर्वरूप सन्धिः इति पूर्वरूपसन्धेः विषयः अस्ति. अस्तु, इदानीं किञ्चित् सूत्रस्य परिशीलनं भवति. यत्किमपि रामप्रिया भगिन्या उक्तं तदेव सूत्ररूपेण कथम् उच्यते इति पश्येम. राजेन्द्रमहोदय, पठति वा?
आं भगिनि, प्रयत्नं करोमि. बहुकालतः न पठितम्. आम्, एनः पदान्ताद् एनः इत्युक्ते एन काचित् प्रत्याहारः ए ओ वर्णः स्वरः.
महोदय, सूत्रं सम्पूर्णतया पठित्वा तदनन्तरं खण्डशः वाक्यशः विवरणं ददाति चेत् वरं.
पदान्तात् एनः वर्णात् अति परे पूर्वपरयोः स्थाने पूर्वरूप एक आदेशः स्यात्. पदान्तात् एनोति एनोति परे पूर्वरूपम् एकः आदेशः स्यात्. एनः पञ्चम्यन्तं, पदान्तात् पञ्चम्यन्तम् अति सप्तम्यन्तं त्रिपदं सूत्रम्. अमि पूर्वः, इत्यस्मात् पूर्व इत्यस्य अनुवृत्तिः एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं पदान्तात् एनः अति पूर्वपरयोः एकः पूर्वः संहितायाम् सूत्रं किं वदति पदान्तात् एन् एन् वर्णात् यत्र पदान्ते यत्र एन् वर्णः आगच्छेत् तत् अनन्तरम् अति अकारः आगच्छति चेत् तत्र पूर्वरूप आदेशः भवति तत्र तथा यथा अत्र उदाहरणे भगिनी पठितवती मे योग अच्युत् एकारः अस्ति पदान्ते मे अनन्तरम् अकारः आगच्छति तत्र पूर्वरूप आदेशः भवति तथा मेच्युत् सन्धिः भवति तत्
समीचीनं पूर्वरूपादेशः कस्य स्थाने भवति
पदान्ते यः स्वरः आसीत् तत् तस्य स्थाने
न चिन्तयतु अहं डेलिबरेट्लि पृष्टवती कस्य इति वस्तुतः कयोः स्थाने इति प्रश्नः भवेत् खलु
पदान्ते यः आसीत् तस्य स्थाने
अत्र प्रथमवाक्यं पठतु सूत्रस्य
पदान्तात् एनः वर्णात् अति परे पूर्वपरयोः स्थाने पूर्वरूप आदेश एकादेशः स्यात् पदान्तात् यथा पदान्तात् यत् एन् वर्णः अर्थात् ए ओ वर्णाः सन्ति तत्र परे अकारः आगच्छति तत् पूर्वरूप एकादेशः भवति
पूर्वपरयोः
स्थाने
इति मुख्यवार्ता अस्ति उभयोः स्थाने पूर्वपरयोः स्थाने नाम एकारस्य स्थाने अपि च अकारस्य स्थाने उभयोः स्थाने पूर्वरूपः एकादेशरूपेण भवति इति मनसि भवेत् अस्तु अग्रे महोदय
पदान्तात् एनोति परे पूर्वरूपम् एकादेशः स्यात् तदपि तथैव अस्ति अतः पदान्ते अनन्तरम् अकारः आगच्छति चेत् पूर्वपरयोः स्थाने एकार पूर्वरूप आदेशः भवतु तत् एनः पञ्चमी अन्तं पदान्तात् पञ्चमी अन्तम् अति सप्तमी अन्तं त्रिपदम् इदं सूत्रं पञ्चमी अन्तम् इत्युक्ते यत् आगच्छति पञ्चमी परकार्यम् अस्ति तत्र एनपि पञ्चमी अन्तम् पदान्तात् पञ्चमी अन्तम् अति सप्तमी अन्तं सप्तमी इत्युक्ते पूर्वकार्यं तत्र पदान्ते एन् एन् प्रत्याहारे अन्तर्भूतः कोऽपि वर्णः आगच्छति तत् तद् अनन्तरम् अकारः आगच्छति तत्र पूर्वकार्यं भवति तत्र एकारस्य ओकारस्य तदनन्तरम् अकारस्य तत्स्थाने पूर्वपरयोस्थाने पूर्वरूप आदेशः भवति यथा एकारः अस्ति पदान्ते त एकार आदेशः भवति पूर्वपरयोस्थाने ओकारः अस्ति तत्र पूर्वपरयोस्थाने ओकार आदेशः भवति पूर्वरूप आदेशः भवति तत् अमि पूर्वः इत्यस्मात् पूर्वः इत्यस्य अनुवृत्तिः अस्ति पूर्वः एकः पूर्वपरयोः संहितायाम् इत्यस्य अधिकारः अस्ति अनुवृत्तिसहितसूत्रं पदान्तात् एनः अति पूर्वपरयोः एकः पूर्वः संहितायां विषये यथा अस्ति तत्र पदान्तात् एनः अस्ति तत्र तत् अनन्तरम् अकारः आगच्छति पूर्वपरयोस्थाने एकः पूर्वरूप आदेशः भवति संहितां विषये
हा बहु समीचीनमस्ति महोदय अस्तु तर्हि सर्वत्र वयं पश्यामः एकः पूर्वपरयोः इत्यस्य अधिकारः आसीत् स्थानी कः इति वक्तुम् अत्र इतोपि एकं सूत्रमस्ति अमीपूर्वः पूर्वः इत्यस्मात् पुनः अनुवृत्तिः आगच्छति. पूर्व एकपूर्वपरयोः पूर्वः आदेशः भवतु इति. अस्तु, इति पूर्वरूपसन्धिः अस्ति. अपि च एतदपि स्मर्तव्यमस्ति यत् अत्र एङ्गः पदान्ताद् अति इति उक्तं खलु. अति इत्युक्ते महोदय?
अति इत्युक्ते अकारः एव तत्र गृह्यते. तत्र
न तु दीर्घ अकारः खलु, ह्रस्व अकारः एव गृह्यते. यथा गुणसंज्ञाविधायकसूत्रमासीत् अदेङ्गुणः, तत्रापि अत् योगः एङ् अदेङ् इति. तत्रापि अत् इत्युक्ते ह्रस्व अकारः एव. पुनः आत् इत्युक्ते अवर्णः, पञ्चमी विभक्ति, गृहात् तथा. परन्तु अत् अपि च अत्रापि अत् इत्युक्ते तकारः मात्रायाः सूचकः अस्ति, इत्युक्ते ह्रस्वाकारः इत्येव आगच्छति. अस्तु, पूर्वरूपसन्धेहे पाठः सञ्जातः. कोऽपि प्रश्नः वा अत्र? नो चेत् अग्रे सरेम. पररूपसन्धिः इति विषयः अधुना. नूतनतया केन केन आगतम्?
राधिका अस्मि भगिनि.
ओ अस्तु, राधिका भगिनी. अनन्तरं कोऽपि अस्ति वा?
सावित्री
अस्मि. ओ अस्तु, सावित्री भगिनी अपि. अस्तु, समीचीनं. तर्हि राधिका भगिनी, सहदेव महोदय, सावित्री भगिनी खलु?
अहं न वदामि भगिनि.
अस्तु अस्तु भगिनि, अग्रे. तर्हि लक्ष्मी भगिनी अग्रे पठति वा?
आं भगिनि. पररूपसन्धिः, एतानि उदाहरणानि परिशीलयत. प्रायोगः एजते, अत्र अकार एकारयोः स्थाने एकारादेशः भवति. प्रायोगः एजते, प्रेजते इति भवति. द्वितीयमस्ति उपयोगः औषति, अत्र अकार ओकारयोः स्थाने ओकारादेशः भवति, तदर्थम् उपोषति इति भवति. शिवाय योगः ॐ नमः, अकार ॐ योजनेन ॐ इति आदेशः भवति, तदर्थं शिवायोम् नमः इति भवति. एतेषु उदाहरणेषु अकारात् परतः ए ओ वर्णौ स्तः, तत्र अकारयोगः एकारः अथवा ओकारः वर्णयोः स्थाने एकार ओकारादेश इति आदेशः सम्पन्नः अस्ति. अवर्णान्तात् उपसर्गात् एकारादौ धातौ परे एकारः ओकारादौ धातौ ओम् शब्दे च परे ओकारः पूर्वपरयोः स्थाने एकः आदेशो भवति. वृद्धेः अयम् अपवादः. भगिनि
वदतु भगिनि, अत्र सर्वत्र किम् अभवत् इति.
अस्य सन्धेः नाम पररूपसन्धिः. अत्र त्रीणि उदाहरणानि दत्तानि. अत्र प्रा इति उपसर्गः, अनन्तरम् अत्र प्रा इति उपसर्गस्य अस्मिन् शब्दे अन्तिमवर्णः अकारः, अकार अनन्तरं द्वितीयपदमस्ति एजिते. एजिते शब्दस्य प्रथमवर्णः एकारः. अकार एकारयोः योजनेन तयोः स्थाने एकारादेशः भवति. एकारः इत्युक्ते अत्र परस्वरः, अत्र परस्वरादेशः भवति चेत् तदर्थम् अस्य सन्धेः नाम पररूपसन्धिः. अयं सन्धिः वृद्धिसन्धेः अपवादः.
हा, समीचीनं भगिनि. तर्हि वृद्धिसन्धेः अपवादः कथं भवति इति किञ्चित् वदति वा?
अत्र प्रायोगः एजते, अत्र अकार एकारयोः योजनेन प्रयुजते इति अपि भवितुमर्हति. वृत्तिसन्धेः प्रसक्तिः अस्ति, परन्तु वृत्तिसन्धेः न भवति. किमर्थं चेत् अत्र अस्य सन्धेः एकः द्वे नियमाः नियमे स्तः, अवर्णान्तात् उपसर्गात् एकारादौ धातौ परे इति अत्र नियमः.
हा हा, समीचीनं. प्र इति उपसर्गः अस्ति न वा?
प्र उपसर्गः.
हा, प्र उपसर्गः अस्ति. तर्हि अधुना वृद्धिसन्धेः एकम् उदाहरणं ददातु भगिनि. प्रायः एकयोगः एकः. हा, एकैकः इति भवति. तत्र प्रथमपदं, प्रथमपदे अन्तिमवर्णः कः?
अकारः.
हा, तदर्थं प्रथमपदम् अवर्णान्तम् इति उच्यते. परन्तु तादृश अवर्णान्तं पदम्, अवर्णान्तं यत्किमपि अस्ति, तद् उपसर्गः नास्ति खलु? हा, इति मुख्यवार्ता. अत्र प्रयोगः एजते इत्यस्मिन् प्र इति उपसर्गः अपि च अवर्णान्तः इति कृत्वा, यथा भगिन्या उक्तं, वृद्धिसन्धिं प्रभाद्य अथवा वृद्धिसन्धेः अपवादरूपेण पररूपसन्धिः भवति. हा, द्वितीय उदाहरणे किमस्ति भगिनि, पुनः परिशीलयतु.
उपयोगः औषधि.
औषधि, क्षम्यताम्, औषधि, क्षम्यताम्.
उपयोगः औषधि, उपोषति इति भवति.
हा, तत्रापि वदतु.
अत्रापि वृद्धिसन्धेः प्रसक्तिः अस्ति, परन्तु वृद्धिसन्धिः न भवति. किमर्थं चेत् अत्र उप इति उपसर्गः, औषधि इति एकारादौ.
भगिनि, वस्तुतः औषधि अस्ति. औ अस्ति चेत् रेखाद्वयं भवति खलु उपरि. औषधि एव.
औषधि, उपयोगः औषधि, उपोषति इति भवति. अत्रापि उपौषधि इति भवितुमर्हति, परन्तु न भवति. किमर्थं चेत् उप इति शब्दः उपसर्गः, औषधि इति एकारादौ धातौ. अत्र औषधि इति क्रियापदं, तस्मिन् औषधिशब्दे प्रथमवर्णः ओकारः, तिङन्तपदम्, एकारादौ धातौ एव. एतदपि
हा हा, समीचीनम्. अत्र भगिनी यथा स्मारितवती, निमित्तद्वयमस्ति. प्रथमम् उपसर्गः अस्ति पूर्वं, तदनन्तरं यः कोऽपि एकारादिः अथवा ओकारादिः शब्दः इति न, तत्र तु विशिष्टरूपेण एकारादिधातुः ओकारादिधातुः भवेत्. अस्तु, धातुः इत्युक्ते किम् इति जानाति वा भगिनि?
क्रियापदस्य मूलरूपं.
यस्मात् क्रियापदं निष्पद्यते, एज् इति धातुः, प्रायः ओष् इति धातुः, तस्मात् क्रियापदानि निष्पद्यन्ते, तादृशरूपम् अस्ति. तर्हि हा, धातुरूपेण एव स्वीकृतमस्ति अत्र. उपसर्गात्, अवर्णात् उपसर्गात् धातुः परः अस्ति चेत् तदा कयोः स्थाने भवति भगिनि?
तयोः इत्युक्ते अत्र अस्मिन् उदाहरणे अकार ओकारयोः स्थाने ओकारादेशः.
हा, पूर्वपरयोः स्थाने परस्वरः. हा, परस्वरः आदेशरूपेण आगच्छति इति पररूपसन्धिः इति सामान्यनियमः अस्ति. अवर्णात् उपसर्गात् एकारादि अथवा ओकारादि धातुः परे अस्ति चेत् तदा पूर्वपरयोः स्थाने, नाम अकारस्य स्थाने अकार एकारयोः, अकार ओकारयोः स्थाने पररूपः आदेशः भवति इति सामान्यनियमः. अस्तु, अत्र तृतीय उदाहरणे किमस्ति भगिनि?
शिवाय योगः ओं नमः. अत्र ओम् इति शब्दः अस्ति. अत्र विवरणम् अपि दत्तमस्ति ओम् शब्दस्य परे इति विवरणे दत्तमस्ति.
ओम् शब्दः ओकारादि धातुः अस्ति वा?
न.
अपि च शिवाय शब्दः उपसर्गः अस्ति वा?
नास्ति.
नास्ति. वदतु.
केवलम् ओम् शब्दः अस्ति चेत् अनन्तरम् ओकारादेशः भवति.
हा हा, इति अस्ति. एतत् सर्वम् अधुना सूत्ररूपेण पश्यामः. सूत्रं किं वदति इति पररूपसन्धिविधायकसूत्राणि दत्तानि करपत्रे.
भगिनि, एकः प्रश्नः अस्ति, पररूपसन्धि अत्र अवग्रहचिह्नः नास्ति वा?
नास्ति भगिनि, यतोहि सर्वम् उच्चार्यते खलु अत्र.
ओ, सर्वम् उच्चार्यते. ओ,
वस्तुतः अवग्रहचिह्नं प्रायः तत्र अकारः न उच्चारणीयः इत्यर्थम् उक्तमस्ति इति मन्ये. खलु? अन्ये किं चिन्तयन्ति? अन्य कोऽपि अन्यत् किमपि कारणमस्ति वा अत्र इति? एव चिन्तयामि भगिनि, अकारः न उच्चारणीयः इति. अस्तु
अस्तु
अस्तु, तर्हि अभिनवमहोदय, तत्र अधुना लक्ष्मीभगिन्या यत्किमपि उक्तं सूत्ररूपेण दत्तमस्ति, तद् पठतु कृपया. प्रथमसूत्रं पररूपसन्धिः.
भगिनि, करपत्रे अथवा पुस्तके?
करपत्रे.
पररूपसन्धि वृद्धिसन्धि अपवादः. एङि पररूपम् अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्. अवर्णान्तादु उपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात्. वृद्धिसन्धेः अपवादः. एङि सप्तम्यन्तं पररूपं प्रथमान्तं द्विपदम् इदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इति अस्य अनुवृत्तिः. उपसर्गात् तृति धातौ इत्यस्मात् उपसर्गात् धातौ इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्.
किञ्चित् परिशीलयतु महोदय आरम्भतः.
अत्र अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपः एकादेशः स्यात्. यत्र वर्णस्य योगः भवति एङादौ धातौ परे, एकारः ओकारः यस्य योगः भवति तत्र आदेशः भवति.
कः आदेशः भवति?
एकारस्य स्थाने एकारः, ओकारस्य स्थाने ओकारः आदेशः भवति.
अस्तु, किञ्चित् पुनः परिशीलयामः. अवर्णात् उपसर्गात् इति उक्तम्, अस्तु, तस्य अर्थः कः?
यत्र अन्ते अवर्णः अस्ति
इदानीम् एकम् एकं पदं वदामि तत्र इति. तत्रापि अन्ते अवर्णः अस्ति खलु. तस्य तस्य विषये वदति वा सूत्रम्?
तत्र शब्दस्य अन्ते अवर्णः अस्ति.
हा, परन्तु सूत्रे किम् उक्तम् अथवा पररूपसन्धिसमये अस्माभिः किं परिशीलनीयं भवति? यः कोऽपि अवर्णः शब्दः इति वा वार्ता? तथा नास्ति खलु. नाम पुस्तकं पश्यतु इदानीम् एकवारं
भगिनि. उपसर्गः इत्युक्ते प्र उप इति वर्णः.
सत्यं सत्यम्. इदानीं वृद्धिसन्धिः इति पश्यतु पृष्ठसङ्ख्या त्रयोदशे त्रयोदशे पृष्ठे वृद्धिसन्धिः इति अस्ति खलु महोदय. हा, तत्र प्रथम उदाहरणं पश्यतु. तत्र किम् अस्ति? नियम्ययोगः एतत् इति खलु. तत्रापि अवर्णात् अस्ति अपि च एकारः अग्रे अस्ति. परन्तु तत्र भेदः कः?
तत्र उपसर्गः न स्यात्.
उपसर्गः नास्ति. यः कोऽपि अवर्णः इति न, परन्तु उपसर्गः अवर्णान्त उपसर्गः स्यात्. अपि च तस्मात् परे किं स्यात्?
एकारः ओकारः.
हा, यः कोऽपि एकारः ओकारः इति न. सूत्रे किम् अस्ति?
वृद्धिसन्धिविषये.
क्षम्यतां क्षम्यतां, वृद्धिसन्धिविषये तत्तु सत्यं. वृद्धिसन्धिविषये यः कोऽपि अकारः यः कोऽपि एकारः, परन्तु पररूपसन्धिविषये अवर्णान्तः उपसर्गः इति प्रथमं. तस्मात् परः किं स्यात्?
एकारः अथवा ओकारः.
हा, कीदृश एकारः ओकारः? सूत्रं पठतु.
एङि पररूपम्.
हा, अग्रे.
अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः.
तत्र तत्र स्थगयतु. अवर्णात् उपसर्गात् इति अवगतं खलु? यः कोऽपि अवर्णः न, हा, उपसर्गः. तस्मात् परे किं स्यात्? एङ् प्रत्याहारे के के वर्णाः सन्ति?
एङ् प्रत्याहारे ए ओ.
हा, ए ओ इति वर्णाः सन्ति. अत्रापि वैशिष्ट्यमस्ति, यः कोऽपि ए ओ इति न, परन्तु एङ्गादि धातुः इति उक्तं खलु. पररूपसन्धिः यद् लक्ष्मी भगिनी पठितवती तस्य उदाहरणं पश्यतु. प्रयोगः एजते इति अस्ति किल. तत्र एजते इति क्रियापदं वस्तुतः, न तु यः कोऽपि पदम्. यदि यदि प्रयोगः एकः इति अभविष्यत् तत्र प्रैकः इति प्रायः अभविष्यत्, परन्तु अत्र एजते इति क्रियापदम् इत्युक्ते धातोः रूपमेव, अतः एङ्गादिधातुः परे स्यात् इति नियमः. अत्र निमित्तं निमित्तद्वयं, निमित्तम् इत्युक्ते हेतुः अथवा कारणं. निमित्तद्वयं, प्रथमम् अवर्णान्त उपसर्गः, तस्मात् परे एङ्गादिधातुः. अस्तु, तादृशी स्थितिः अस्ति चेत् तदा किं भवति?
एकादेशः भवति.
हा, कः एकादेशः भवति?
एकारः अथवा ओकारः.
हा, एकारः एकारः अथवा ओकारः अत्र पूर्ववर्णः वा अथवा परवर्णः वा?
परवर्णः.
परवर्णः. तदर्थमेव प्रथमवाक्ये, सूत्रस्य प्रथमवाक्ये उक्तं पररूपम् एकादेशः स्यात् इति. अधुना प्रश्नः प्रश्नः अस्ति, अयं पररूप एकादेशः कस्य स्थाने भवति इति प्रश्नः. तत्र उत्तरं किम्?
पूर्वपरयोः.
श्रुतं वा अभिनवमहोदय? हा, पूर्वपरयोः इति षष्टिविभक्ति. पूर्वपरयोः स्थाने नाम पूर्वं यः अकारः अस्ति, परं यः एकारः अस्ति, तयोः स्थाने, पूर्वपरयोः स्थाने पररूपम् एकादेशरूपेण अस्ति. समीचीनम्. तर्हि अग्रे पठतु सूत्रम्.
अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पररूपमेकादेशः स्यात्
इति अस्माकं
अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पररूपम् एकादेशः स्यात्. पूर्ववाक्ये यदा लेखनमस्ति यत्र अवर्णान्तात् उपसर्गः अस्ति, अपि च एङादौ धातौ अस्ति पररूपे, तत्र पररूपस्य आदेशः भवति.
हा, सत्यम्. एकादेशः भवति इति सूत्रं, सूत्रस्य फलितार्थः. अस्तु, अग्रे.
वृद्धिसन्देहे अपवादः अस्ति
इति वयं दृष्टवन्तः अधुनैव, खलु?
हा,
एकयोगः एकः, एकैकः इति ऐ वृद्धिसंज्ञकवर्णः आदेशरूपेण आगच्छति, न तु पररूपम्.
एङि सप्तम्यन्तम्, सप्तम्यन्तम् इत्युक्ते पूर्वकार्यं भवति.
समीचीनं.
पररूपं प्रथमान्तं, प्रथमान्तम् इत्युक्ते आदेशः आगच्छति. द्विपदमिदं सूत्रम्.
हा, बहु सम्यक् अस्ति. तत्र तु सारल्यमेव, भवान् उक्तवान् एङि इत्युक्ते तत्र सप्तमी विभक्ति इत्युक्ते परकार्यं भव, क्षम्यतां, पूर्वकार्यं भवति.
पूर्वकार्यं
पररूपम् इति वदति चेत्, प्रथमान्तम् अस्ति चेत् तत्र आदेशः वा आगमः वा नामकरणम् इति यत्किमपि भवति. अस्मिन् सूत्रे तु आदेशः.
आद् गुणः इत्यस्मात् आद् इत्यस्य अनुवृत्तिः. आद् गुणः वयं दृष्टवन्तः.
कदा दृष्टवन्तः? गुणसन्धिविधायकसूत्रं,
गुणसन्धिविधायकसूत्रं
तदा दृष्टवन्तः. अवर्णात् अचीपरे पूर्वपरयोः स्थाने गुणसंज्ञक एकादेशः इति आद्गुणः सूत्रं. तस्मात् सूत्रात् आत् इत्यस्य अनुवृत्तिः.
आत् इत्युक्ते आकारः.
हा, अत्र पुनः स्पष्टीकर्तव्यमस्ति, आत् इत्युक्ते केवलम् आकारः इति न, आत् इत्युक्ते अवर्णः. अवर्णः इति वदामश्चेत् तत्र सः अवर्णः तत्र अष्टादश अवर्णानामपि प्रतिनिधिः भवति, खलु? ह्रस्व दीर्घ प्लुत अनुनासिक किम् अननुनासिक इति सर्वमस्ति किल, तेषां सर्वेषां प्रतिनिधिः भवति आत् अवर्णः. अस्मिन् सूत्रे आद् गुणः इत्यस्मिन् सूत्रे तादृश अर्थः अस्ति. अस्तु, अग्रे.
उपसर्गात् तृतिधातौ इत्यस्मात् उपसर्गात् धातौ इत्यनयोः अनुवृत्तिः.
केवलम् अनुवृत्तिः कुतः आगच्छति इति वदति, तावदेव, अग्रे पठतु. उपसर्गात् अपि च धातौ इत्यनयोः अनुवृत्तिः.
एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः.
hmm. अधिकारः इति जानाति खलु, एकः पूर्वपरयोः इति भिन्नसूत्रं, तत् सूत्रं पूर्णतया अस्मिन् सूत्रे आगत्य कार्यं करोति. संहितायामपि भिन्नसूत्रं पूर्णतया आगत्य अस्मिन् सूत्रे अर्थं पूरयति इति. तदर्थमेव अनुवृत्तिसहितसूत्रं पठतु, स्पष्टं भवति तदा.
अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम्. आत् उपसर्गात्
इत्युक्ते अवर्णात् उपसर्गात् तावदेव. आत् इत्युक्ते सर्वेषाम् अवर्णानां प्रतिनिधि. आत् उपसर्गात् किम्?
अत्र पञ्चमी विभक्ति अस्ति, तत्र परकार्यं भवति.
अग्रे महोदय.
एङि धातौ पूर्वपरयोः एकं पररूपं संहितायाम् एङि धातौ अस्ति, तत्र पूर्वपरयोः पररूपस्य आदेशः भवति.
हा, समीचीनं. तदर्थमेव पररूपसन्धिः इति उच्यते. तत्र नाम्नि एव अन्तर्भूतं, पररूपम् आदेशः भवति इति. अस्तु, अवगतं. तर्हि कोऽपि प्रश्नः वा?
नास्ति, धन्यवादः.
सम्यक् अस्ति तर्हि. अस्तु, अग्रे शिवाय ओं नमः इति दृष्टवन्तः खलु, तत्र शिवाय इति उपसर्गः नास्ति, तस्मात् परः ओम् इति अपि नास्ति. तर्हि राधिका भगिनी अस्ति वा? राधिका भगिनी अस्ति किम्? अस्तु, विद्या भगिनी. तत्र ओमाङ्गोश्च इति सूत्रमस्ति, पठति वा?
ओमाङ्गोश्च अवर्णात् ओमि आङ्गि च पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्. ओमि आङ्गि च आत्परे पररूपम् एकादेशः स्यात्. वृद्धिरेचि अकः सवर्णिदीर्घः इत्यनयोः अपवादः. ओम् इति अव्ययपदम्, आङ् इति उपसर्गः. ओं च आङ् च ओमाङ्गौ द्वन्द्वसमासः, तयोः ओमाङ्गोः. ओमाङ्गोः सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम्. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः. एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् ओमाङ्गोः च पूर्वपरयोः एकं पररूपं संहितायाम्. अत्र अवर्णात् ओमि आङ्गि च पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात् इत्युक्ते अत्र यदि प्रथमम् अकारः अस्ति, अनन्तरं यदि ओम् इति अव्ययपदमस्ति अथवा आङ् उपसर्गः, आकार दीर्घ आकारः इति उपसर्गः अस्ति चेत् तदा द्वयोः पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्. यदि ओम् अस्ति चेत् ओम् आदेशरूपेण आगच्छति, आङ् अस्ति चेत् आङ् आदेशरूपेण आगच्छति.
वस्तुतः एतत् सर्वं वर्णविज्ञानमस्ति खलु, सन्धिविषयः. तर्हि ओकारः एव आगच्छति, आकारः एव आगच्छति पूर्वपरयोः स्थाने.
अनुवृत्तिसहितसूत्रम् आत् ओमाङ्गोः च पूर्वपरयोः एकं पररूपं संहितायाम्. अत्र आत् इति पञ्चम्यन्तम्, ओमाङ्गोः सप्तम्यन्तं, पूर्वपरयोः अपि सप्तम्यन्तं.
न, चिन्तयतु.
पूर्वपरयोः षष्ठ्यन्तं,
समीचीनम्.
सो इत्युक्ते आत् पञ्चमी अन्तम् इत्युक्ते तस्मात् अनन्तरं कार्यं भवति. ओम् आङ्गौ सप्तमी अन्तम् इत्युक्ते ओम् अथवा आङ्ग् इति त्वयोः पूर्वं कार्यं भवति. पूर्वपरयोः एकं पररूपम् आदेशः भवति यदि सन्धिकार्यम् अस्ति चेत्.
हा हा समीचीनं. पूर्वपरयोः का विभक्तिः?
षष्टि.
षष्टिविभक्ति, यतोहि स्थानं सूचयति. एकः पूर्वपरयोः इत्यस्य अधिकाररूपेण सूत्रमागच्छति खलु, स्थानं सूचयति. तर्हि उभयोः स्थाने एकं पररूपम् आगच्छेत्. अत्र तु ओम् अथवा आङ् इत्यनयोः प्रथमवर्णः एव पररूपत्वेन अस्ति इति कृत्वा सः आदेशः भवति. अस्तु, इति वयं दृष्टवन्तः. तत्र अग्रे उदाहरणमस्ति भगिनि, यद्वयं पुस्तके पठितवन्तः तत् पठतु कृपया.
शिवाय ओम् नमः इति नमस्कारात्मकवाक्यं. शिवाय योगः ओम् आद्गुणः इति प्रभाद्य वृद्धिरेचि, वृद्धिरेचि प्रभाद्य ओमाङ्गोश्च इत्यनेन पररूपादेशः शिवाय ओम् नमः इति. अत्र शिवाय योगः ओम् इति उदाहरणमस्ति. तत्र प्रथमम् आद्गुणस्य प्रसक्तिः अस्ति, यतोहि अत्र अकारः योगः ओकारः, अत्र ओकारः इति भवितुमर्हति, परन्तु तं प्रबाद्य वृद्धिरेचि कार्यं कर्तुम् आगच्छति. अनन्तरं वृद्धिरेचि प्रबाद्य ओमाङ्गोश्च इति सूत्रम्, अपवादसूत्रम् अत्र आगत्य कार्यं करोति शिवाय ओम् नमः इति.
हा समीचीनमस्ति. वस्तुतः वृद्धिसन्धिः तु अस्माकं मनसि स्फुरति एव. अस्तु, अकारात् परतः ओकारः वृद्धिः स्यात् इति चिन्तयित्वा अस्तु, तं प्रभाद्य ओमाङ्गोश्च अत्र कार्यं करोति इति झटिति स्फुरति. परन्तु अत्र आद्गुणः अपि तस्य प्रसक्तिः अस्ति. आद्गुणः किं वदति?
अवर्णात् अचि परे.
हा तर्हि तादृशी एव स्थितिः खलु, अवर्णात् अचि परे. हा परन्तु तद् प्रभाद्य वृद्धिरेचि इति आरम्भे एव वयं दृष्टवन्तः कार्यं करोति. अधुना वृद्धिरेचिं प्रभाद्य ओमाङ्गोश्च, अतः एव शिवाय ओम् नमः. अस्तु, अग्रिम उदाहरणं पुस्तके नास्ति, किन्तु आङ् उपसर्ग उपसर्गस्य उदाहरणमस्ति. भगिनि पठतु तदपि.
करपत्रे वा?
करपत्रे.
शिवायोगः आङ् इति उपसर्गः, योगः इहि, शिवयोगः आ योगः इहि. महाभाष्ये धातु उपसर्गयोः अन्तरङ्गत्वात् आयोगः इहि इति प्रथमं कार्यम्. आद्गुणः इत्यनेन गुणादेशः शिवायोग आयोगः इहि एहि इति भवति. शिवायोगः एहि अन्तादिवच्च इत्यनेन एकारः, आयोगः इ इत्यनयोः प्रतिनिधिः, तस्माच्च आङ्गत्वं स्वीक्रियते. अकः सवर्णे दीर्घः इति प्रभाद्य पररूपादेशः शिवेहि इति. भगिनी भवती एव वदतु.
अस्तु, तत्र वस्तुतः जाटिल्यमेव किञ्चित्. शिवयोगः आङ् उपसर्गः, ओमाङ्गोश्च तत्रापि कार्यं करोति, अवर्णात् आङ्गि परे खलु. तत्र आ इति उपसर्गः, इहि इति क्रियापदमस्ति. शिवायोगः आयोगः इहि इति अस्ति. तत्र आयोगः इहि इति प्रथमकार्यं क्रियते. अस्तु, धातु उपसर्गयोः क्रियापद उपसर्गयोः मेलनं महाभाष्ये कथं तादृशनियमः अस्ति, धातु उपसर्गयोः प्रथमकार्यं. तर्हि आयोगः इहि इत्यत्र कः सन्धिः भवितुम् अर्हति? हा समीचीनं, महायोगः ईशः महेशः, तद्वदेव. तर्हि शिवायोगः एहि इति प्रथमम् आगच्छति खलु. अधुना यद्यपि एहि इत्यस्य आङ् उपसर्गः न दृश्यते तत्र, शिवायोगः एहि, तथापि अन्तादिवच्च इत्यनेन एकारः आयोगहि आकारस्य प्रतिनिधिः भवति. तदर्थमेव ओमाङ्गोश्च इति सूत्रं कार्यं कर्तुं शक्नोति इति उक्तम् अत्र. तदर्थं शिवेहि इति भवति. अस्तु, तर्हि तत्र अधिकं समयं मास्तु, यतोहि शिवाय ॐ नमः इति वयम् अधुना जानीमः कथं सिद्ध्यति इति. ॐ ओमि ओमि परे तादृशकार्यं पररूपकार्यं भवति इति जानीमः. अस्तु, अधुना पररूपसन्देहे अन्तिमभागः अस्ति, एकः अपवादः अस्ति. सहदेव महोदय पठितुम् इच्छति वा तत्र पुस्तके?
भगिनि,
अस्यापवादः इति अस्ति पररूपसन्धिविभागे, पेज् 22. प्राप्तम्?
पररूपसन्धिः
तत्र अस्यापवादः इति अस्ति, पश्यति वा?
न भगिनि, केवलं शृणोमि भगिनि.
शृणोति, अस्तु. तर्हि बालसुब्रह्मण्य महोदय पठति वा? महोदय बालसुब्रह्मण्य
महोदय,
द्वाविंशतितमपुटे,
द्वाविंशतिपुटे
पररूपसन्धिः इति अस्ति. लक्ष्मी भगिनी, हा, प्रथमभागं लक्ष्मी भगिनी पठितवती, तस्य अधोभागे अस्यापवादः इति अस्ति.
अस्यापवादः, एकारादौ इन् धातौ ए धातौ च परे पररूपं न किन्तु वृद्धि एव, यथा उपयोग एति उप योग अयोग ए योग ति उपैति उपयोग उपयोग ऐ योगति वृद्धिसन्धि उपैति इति. सो अत्र पररूप सन्धि न कार्यं करोति.
हा, किन्तु निमित्तानि सन्ति वा पररूपसन्धेः कार्यार्थम्?
आम, उपसर्गम् अस्ति, परन्तु धातु नास्ति.
हा, धातुः अपि अस्ति, एति इति क्रियापदम्,
एति धातु धातु स्याम्, आम् आम्, धातु अपि अस्ति. सो निमित्तम् अत्र भिन्नः किं
न, तत्र अपवादः तावदेव. निमित्तानि सन्ति पररूपसन्धेः कार्यार्थं, निमित्तानि सन्ति, किन्तु वृद्धिः एव भवति इति.
एवमेव प्रयोग एदते ए योग दते, प्रयते प्रयधते इति वृद्धि वृद्धि सन्धि एव.
अत्रापि निमित्तमस्ति वा?
अत्र आम्, प्र इति उपसर्गम्, एदते अपि धातु.
हा, उपसर्गः अस्ति अपि च तस्मात् धातुः अस्ति, किन्तु निमित्तं सत्यपि तत्र पररूपसन्धिः न भवति, अपि तु वृद्धिः भवति. अस्तु, इति हा, इति अपवादः. तत्र सूत्रस्य परिशीलने समयः अपेक्षते, अधुना समयः सञ्जातः इति कृत्वा अग्रिमसप्ताहे ससूत्रं परिशीलनं कुर्मः, किन्तु एवमेव अस्ति पररूपसन्धिः इति. तर्हि हा, झटितिः एव अद्य यान्तवान्तादेशसन्धिः कृतवन्तः, तत्र सारांशत्वेन अजय महोदय वदति वा किं भवति यान्तवान्तादेशसन्धौ?
यान्तवान्तादेशसन्धि ए ओ ऐ औ वनेभ्यः परतः
तत्र बहु
तस्य स्थाने,
हा, बहु सरलरीत्या रक्तवर्णे एकं कोष्टकं दत्तमस्ति, तावदेव, तद् विवृणोतु.
आम्, ए ओ ए ऐ ओ औ योगः स्वरः ऐ ऐ औ आव् योगः स्वरः भवति
इति यान्तवान्तादेशसन्धिः खलु?
यान्तवान्तादेश, आम्.
समीचीनं. पूर्वरूपसन्धिः तत्र किं भवति?
Okay. पूर्वरूपसन्धिः ए योगः ए ओ योगः अकारः एकारः ओकारः एव भवति तस्य स्थाने एकारः एकं चिह्नम् अपि
सत्यं सत्यं तर्हि एकारः अकारः इति अस्ति खलु तत्र यान्तवान्तादेशसन्धिः सम्भवति वा
एकारः योगः पुनः
अकारः इति यद् भवान् दृष्टवान् अधुना पूर्वरूपसन्धिविषये तत्र यान्तवान्तादेशसन्धिः सम्भवति वा
यान्तवान्तादेशसन्धिः सम्भवति
किन्तु न भवति खलु किमर्थं
किन्तु न भवति पदान्तात्
इति वार्ता पदान्त एकारः पदान्त ओकारः तस्मात् अकारः इति अस्ति अतः द्वयोः स्थाने कः आदेशः भवति
द्वयोः स्थाने पूर्वरूपः एक आदेशः
हा बहु समीचीनं पूर्वरूपादेशः अपि च पररूपसन्धिः इदानीं वयं दृष्टवन्तः अस्तु उपसर्गाद् एजादि अथवा ओकारादि धातुः अस्ति चेत् तत्र पररूपादेशः भवति इति तस्य अपवादम् अग्रिमसप्ताहे परिशीलयिष्यामः कोऽपि प्रश्नः वा अत्र अस्तु तर्हि प्रश्नः न सन्ति चेत् विरमामः धन्यवादः
धन्यवादः
धन्यवादः भगिनी